6th chapter verses 16 to 20. Nati.
Nati. Nati.
Ashnatas.
Ashnatas.
Tu.
Tu. Tu. Tu.
Yogosti.
Yogosti. Yogosti. Yogosti.
Nachaikantam.
Nachaikantam. Nachaikantam. Nachaikantam.
Anashnata.
Anashnata. Anashnata.
Nachati.
Nachati. Nachati. Nachati.
Swapna.
Swapna. Swapna. Swapna.
Shilasya.
Shilasya. Shilasya. Shilasya.
Jagrato.
Jagrato. Jagrato. Jagrato.
Naiva Charjuna.
Naiva Charjuna. Naiva Charjuna. Naiva Charjuna.
Thoda Nati Ashnatas. नाति अश्नतस्तु योगोस्ति
नाति अश्नतस्तु योगोस्ति नाति अश्नतस्तु योगोस्ति नाति अश्नतस्तु योगोस्ति
न चैकान्तम् अनश्नता
न चैकान्तम् अनश्नता न चैकान्तम् अनश्नता न चैकान्तम् अनश्नता
न चाति स्वप्नशीलस्य
न चाति स्वप्नशीलस्य न चाति स्वप्नशीलस्य
जाग्रतो नैव चार्जुना
जाग्रतो नैव चार्जुना जाग्रतो नैव चार्जुना
नाति अश्नतस्तु योगोस्ति न चैकान्तम् अनश्नता न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुना
नाति अश्नतस्तु योगोस्ति न चैकान्तम् अनश्नता
बिहारस्य
चेष्टस्य
कर्मसु
कर्मसु कर्मसु
युक्त
युक्त युक्त युक्त
स्वप्नाव
स्वप्नाव स्वप्नाव स्वप्नाव
बोधस्य
बोधस्य बोधस्य बोधस्य
योगो भवति
योगो भवति योगो भवति योगो भवति
दुःखः
दुःखः दुःखः दुःखः
युक्ताहार विहारस्य
युक्ताहार विहारस्य युक्ताहार विहारस्य युक्ताहार विहारस्य
युक्तचेष्टस्य कर्मसु
युक्तचेष्टस्य कर्मसु युक्तचेष्टस्य कर्मसु युक्तचेष्टस्य कर्मसु
युक्तस्वप्नवबोधस्य
युक्तस्वप्नवबोधस्य युक्तस्वप्नवबोधस्य युक्तस्वप्नवबोधस्य
योगो भवति दुःखः
योगो भवति दुःखः योगो भवति दुःखः योगो भवति दुःखः
युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु स्वप्नावबोधस्य योगो भवति दुःखः
युक्ताहारविहारस्य युक्तचेतस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः युक्ताहारविहारस्य युक्तचेतस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः
आत्मनि
आत्मनि आत्मनि आत्मनि
एवावतिष्ठते
एवावतिष्ठते एवावतिष्ठते एवावतिष्ठते
निःस्पृहा
निःस्पृहा निःस्पृहा निःस्पृहा
सर्वकामेभ्यो
सर्वकामेभ्यो सर्वकामेभ्यो सर्वकामेभ्यो
युक्त इत्युच्यते
युक्त इत्युच्यते युक्त इत्युच्यते युक्त इत्युच्यते
तदा
तदा तदा तदा तदा
यदा विनियतां चित्तम् आत्मनेवावतिष्ठते निःस्पृहा सर्वकामेभ्यो युक्त इत्युच्यते तदा यदा विनियतां चित्तम् आत्मनेवावतिष्ठते निःस्पृहा सर्वकामेभ्यो युक्त इत्युच्यते तदा निवातस्तो स्मृता योगिनो यतचित्तस्य युञ्जतो योगम् आत्मना यता दीपो निवातस्तो नेङ्गते सोपमस्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मना यता दीपनिवातस्तो नेङ्गते सोपमस्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मना अश्नतस्तु योगोऽस्ति न चैकान्तम् अनश्नत न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतां चित्तम् आत्मनेवावतिष्ठते निःस्पृहा सर्वकामेभ्यो युक्त इत्युच्यते तदा यता दीपो निवातस्तो नेङ्गते सोपमस्मृत योगिनो यतचित्तस्य युञ्जतो योगमात्मना
योगस्य